एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः प्रतिनिधिसभायाम् एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य अन्तर्गतस्य मन्त्रालयगतस्य विनियोजनस्य शीर्षकाणि आधृत्य अद्य स्वश्च विमृक्ष्यते। मन्त्रालयगत विनियोजन विधेयकस्य शीर्षकाणि आधृत्य उत्थापितानां प्रश्नानाम् उत्तराणि सम्बद्धैः मन्त्रिभिः अस्यैव आषाढमासस्य तृतीय चतुर्थयोः दिवसयोः प्रदास्यते इति संघीय संसद सचिवालयेन ज्ञापितं वर्तते। अद्य युवश्रम वृत्त्युपार्जन मन्त्रालयस्य उद्योग वाणिज्यापूर्ति कृषि वन पर्यावरण सूचना संचार संस्कृति पर्यटन नारी कोड्डयन शिक्षा खेलकूद स्वास्थ्य खाद्य स्वच्छता भूमि व्यवस्था सहकारी संघीय विषय सामान्य प्रशासन महिला बाल बालिका लैंगिक यौनिक अल्पसंख्यक सामाजिक सुरक्षा मन्त्रालयानां विनियोजन विधेयकस्य शीर्षकाणि आधृत्य विमर्शनं विधीयमानं वर्तते। एवमेव स्व आषाढमासस्य द्वितीय दिवसे विज्ञान प्रविधि नव प्रवर्तन मन्त्रालयस्य विधि न्याय संसदीय मन्त्रालयस्य पूर्वाधार विकास मन्त्रालयस्य गृह मन्त्रालयस्य ऊर्जो जलस्रोत सेचन मन्त्रालयस्य परराष्ट्र मन्त्रालयस्य अर्थ मन्त्रालयस्य रक्षा मन्त्रालयस्य प्रधानमन्त्री मन्त्री परिषदः कार्यालयस्य राष्ट्रिय योजनायोगस्य सचिवालयस्य उपराष्ट्रपतेः राष्ट्रपतेश्च कार्यालययोश्च विनियोजन विधेयक गत शीर्षकाणि आधृत्य विमृष्टुम् कार्यसूची निर्धारिता स्थिति ज्ञापितम् वर्तते। चीन देशस्य चतुर्दिवसीयस्य औपचारिक भ्रमणस्य कृते प्राप्तः परराष्ट्रमन्त्री शिशिरखनालः बेजिङ स्थाने विभिन्नेषु कार्यक्रमेषु सहभागी सम्भूतो वर्तते। ह्यः अपराह्नस्य समये परराष्ट्रमन्त्रिणः खनालस्य सम्माने नेपाली दूतावासेन आयोजिते स्वागत समारोहे सहभागी भूत्वा परराष्ट्रमन्त्री खनालः नेपाली समुदायेन सह अन्तरक्रियां च विदधातीति तत्रत्येन नेपाली दूतावासेन ज्ञापितं वर्तते। कार्यक्रमे परराष्ट्रमन्त्री खनालः वर्तमान सर्वकारस्य प्राथमिकतायां सुशासनस्य संस्थागत विकासः आर्थिक विकासः समृद्धिश्च सन्तीति प्रत्यपादयत्। सैव कार्यक्रमे परराष्ट्रमन्त्रिणा खनालेन देशस्य समृद्धेः अभियाने सहभागी भवितुम् तत्रत्य नेपाली समुदायः आहूतः आसीत्। तदवसरे मन्त्रिणा खनालेन चीनदेशे नेपालस्य हितस्य प्रवर्धनम् विधातुम् तत्रत्य नेपाली नागरिकेभ्य प्रभावकारिणीम् सेवाम् प्रदातुम् च राजदूतावासस्य अधिकारिणो निर्दिष्टाः आसन्। परराष्ट्रमन्त्री शिशिरखनाल चीनदेशस्य समकक्षिण वांगई इत्यस्य निमन्त्रणायाम् चीनदेशस्य चतुर्दिवसात्मकाय भ्रमणाय ह्यः प्रातः बेजिङ नगरम् प्राप्तः आसीत्। परराष्ट्रमन्त्रिणा खनालस्य बेजिङ अन्तर्राष्ट्रिय विमानस्थले बेजिङ स्थितस्य नेपाली राजदूतावासस्य कार्यवाहक राजदूतेन श्रीमती रोशन खनाल इत्यनया चीनदेशस्य परराष्ट्र मन्त्रालयस्य अधिकारीभिश्च स्वागतम् विहितवन्तः। मध्यप्रदेशस्य शतप्रतिशतम् जनसंख्यायाम् विद्युत् सेवा प्राप्तास्ति। राष्ट्रिय प्रसारण प्रणाल्याः माध्यमेन प्रदेशस्य 37% पालिकानाम् 1,170,200 च वडा क्षेत्राणाम् सर्वेषु गृहेषु विद्युत् सेवा प्राप्तास्ति। आगामिनः आर्थिक वर्षस्य कृते ह्य प्रदेश समुपवेशी अर्थमन्त्रिणा युवराज भट्टराई इत्यनेन प्रस्तुते आर्थिक सर्वेक्षणे प्रदेशस्य 100% जनसंख्यायां विद्युत् सेवा प्राप्तास्ति इति उल्लिखितम् वर्तते। सर्वकारेण आगामिनः आर्थिक वर्षस्य आयव्ययक विवरणे नवीकरणीयोर्जसः ऊर्जोदक्षतायाश्च कार्यक्रमाः विशेष प्राथमिकतायाम् स्थापिताः वर्तन्ते। एतदर्थम् सर्वकारेण अब्जद्वयम् 62 कोटयः 74,00,000 च रूप्यकाणि विनियुङ्क्तानि वर्तन्ते। एतदर्थम् नेपाल सर्वकारस्य पक्षतः 1,21,00,000 कोटयः 74,00,000 च रूप्यकाणि विनियुङ्क्तानि सन्ति चेद् वैदेशिक सहयोगस्य माध्यमेन 1,43,00,000 कोटयश्च रूप्यकाणि व्ययीकरिष्यन्ते। अर्थमन्त्री डाक्टर स्वर्णिम वाग्ले आगामिनाम् पञ्चवर्षाणाम् अभ्यन्तरे युवभिः स्वस्य स्वप्नम् पूरयितुम् अनिवार्यतया विदेश गमनस्य बाध्यताया अन्तो भविष्यतीति उक्तवान् वर्तते। काष्ठमण्डपे पूर्वे द्युः आयोजिते एतद्विक्रमवर्षीये राष्ट्रिय युवोद्यमशीलता सम्मेलने अर्थमन्त्री डाक्टर वाग्ले आगामिनः आर्थिक वर्षस्य आयव्ययकस्य माध्यमेन युवभ्यः स्वदेशे एव वृत्त्युपार्जनस्य शिक्षायाश्च अवसराणाम् अन्यविधानाम् अवसराणाम् च पर्याप्तरूपेण सर्जनम् विधास्यते इति न्यश्चिनोत्। आयव्ययविवरणे करस्य अनुपातम् न्यूनीकृत्य एकलक्षम् यावत् अर्जितवद्भ्यो युवभ्यः महत्वपूर्णम् सौविध्यम् प्रदाय करस्य व्यवस्थातः मुक्तिः प्रदत्तास्तीति चर्चयन् अर्थमन्त्री डाक्टर वाग्ले अस्याः व्यवस्थातः लाभः ग्रहीतुम् सर्वान् अन्वरुणत्। महोत्तरी जनपदस्य भंगः नगरपालिकायां जलविप्लवेन प्रभावितेभ्य त्रिसप्तत्यै परिवारेभ्यः ह्यः गृहाणि हस्तान्तरितानि वर्तन्ते। गताश्विन मासस्य एकोनविंशे विंशे च दिवसयोः जनपदस्य रातो खोला नद्यां दुरापन्नस्य जलप्लवस्य कारणेन गृहविहीनावस्थां प्राप्तवद्भ्यो भंगः नगरपालिकायाः दलितवर्गस्य विपन्नवर्गस्य अतिविपन्नवर्गस्य च त्रिसप्तत्यै परिवारेभ्य नूतन गृहाणि निर्माय हस्तान्तरितानि वर्तन्ते।